इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः अफ्रीकीय राष्ट्राणां त्रिदिवसीय प्रवासस्य अन्तिमे दिवसे अद्य मलावी देशस्य सांस्कृतिक स्थलानां भ्रमणं करिष्यति। ह्यः राष्ट्रपतिना स्वीयेन समकक्षेण लाजरस चक्वेरा इत्यमुना साकं द्विपक्षीयोपवेशनानि विहितानि। अत्रावसरे भारत मलावी देशाभ्यां प्रतिनिधिमण्डलस्तरीयायाः वार्तायाः अनन्तरं विभिन्नेषु क्षेत्रेषु सहयोगस्य चतुर्षु सहभागिता ज्ञापनपत्रेष्वपि हस्ताक्षरं जातम्। राष्ट्रपतिः द्रौपदी मुर्मुः मलावीदेशे एकं स्थायि कृत्रिम अंग प्रतिस्थापन केन्द्रम् उद्घाटयितुं घोषणाम् अपि कृतवती। अद्य राष्ट्रपतिः श्रीराधाकृष्णमन्दिरं प्रसिद्धं मलावी सरोवरं प्रति च यास्यति। तदनन्तरं राष्ट्रपतिः अल्जीरिया मौरिटानिया मलावीदेशानां आसप्ताहपर्यन्तं प्रचलितानां त्रयाणां राष्ट्राणां यात्रानन्तरं नवदिल्लीं प्रति प्रस्थास्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदिल्ल्यां कर्मयोगी सप्ताह राष्ट्रिय शिक्षण सप्ताहस्य इत्यस्य आरम्भ करिष्यति। सप्ताहावधौ प्रत्येकं कर्मयोगी न्यूनातिन्यूनं चतस्रीणां होरासां सक्षमता सम्बद्ध शिक्षणं प्राप्तुं प्रतिज्ञां करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य द्वाविंशति दिनांकात् रूसदेशस्य द्विदिवसीय यात्रायां भविष्यति, यत्र असौ षोडशतमे ब्राजील भारत रूस चीन दक्षिणाफ्रीका देशानां ब्रिक्स इति शिखरसम्मेलने भागं ग्रहीष्यति। कजाननगरे आयोक्ष्यमाणस्य शिखरसम्मेलनस्य विषयो विद्यते न्यायपूर्ण वैश्विक विकासस्य सुरक्षायाश्च सुदृढीकरणम् इति। सम्मेलनमिदं नेतृन् प्रमुख वैश्विक विषयेषु चर्चां कर्तुं महत्वपूर्णं मञ्चं प्रदास्यति। ब्रिक्स इत्यनेन समारब्धानाम् उपक्रमाणां प्रगतेः समाकलनाय भविष्ये सहकार्यस्य सम्भाव्यक्षेत्रान् अन्वेष्टुं च बहुमूल्यम् अवसरं प्रदास्यति। विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् प्रधानमन्त्री मोदी यात्राकाले ब्रिक्स सदस्यदेशैः स्वसमकक्षैः च सह द्विपक्षीयोपवेशनम् अपि करिष्यति इत्यपेक्षा अस्ति। उपराष्ट्रपतिः जगदीप धनखडः अद्य राजस्थानस्य सीकर जनपदस्य एकदिवसीय भ्रमणार्थं प्रस्थास्यति। यात्रावधौ उपराष्ट्रपतिः सीकर क्षेत्रे साभासरिया ग्रुप ऑफ इंस्टीट्यूशन्स इत्येतस्य रजत जयन्ती वार्षिक समारोहे मुख्यातिथित्वेन अध्यक्षतां करिष्यति। केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहान अद्य नवदिल्ल्यां शीतकालिक सस्यानां कृते कृष्याधारितस्य एकदिवसात्मकस्य राष्ट्रिय कृषि सम्मेलनस्य उद्घाटनं करिष्यति। एतस्मिन् कार्यक्रमे केन्द्रीय कृषि कृषक कल्याण राज्यमन्त्री रामनाथ ठाकुरो अपि उपस्थितो भविष्यति। अस्य सम्मेलनस्य उद्देश्यं कृषिपद्धतिषु सहयोग नवाचारयोः संवर्धनमिति अस्ति, येन हि समेषां हितधारकाणां कृते सफल शीतकालिक सस्याभियानं सुनिश्चितं स्यादिति। झारखण्ड विधानसभा निर्वाचनाय राष्ट्रिय जनतांत्रिक संयुतेः सहयोगी दलानां कृते आसन विभाजनस्य घोषणा जाता। राज्ये निर्वाचनस्य सह प्रभारी हिमन्त बिस्वा शर्मा इत्येषः रांचीनगरे उक्तवान् यत् भाजपेति दलं अष्टषष्टिः, आजसू दलं दश, जनतादल यूनाइटेड इति द्वि, चिराग पासवानस्य एलजेपी दलं एकं च विधानसभासनेषु निर्वाचनं करिष्यन्ति। भारतेन लेबनान देशाय त्रयस्त्रिंशत् टनमितायाः खाद्यपूर्तेः रूपेण मानवीय साहाय्यं प्रेषितम्। ह्यः एकादश टनमितं यावत् चिकित्सापूर्तिः सम्प्रेषिता, यस्मिन् हृदयरोग सम्बद्धाः अनेके औषधयः सम्मिलिताः सन्ति। विदेशमन्त्रालयेन ज्ञापितं यत् साहाय्यमिदं एफआईपीआईसी इत्येतस्य तृतीय शिखर सम्मेलने भारतेन कृत प्रतिबद्धतां प्रकटयति। क्रिकेट प्रतिस्पर्धायां भारतम् अद्य प्रातः बेंगलुरुनगरे प्रथमायाः क्रिकेट निकष स्पर्धायाः चतुर्थे दिने न्यूजीलैंड दलं विरुध्य एकत्रिंशदधिक द्विशतं धावनांकेषु स्वकीयं द्वितीयं द्वन्द्वं क्रीडिष्यति इति वार्ताः।